एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। पञ्चदलीय गठबन्धनेन यो धनगढ़ी सुर्खेत स्थानयोः संयुक्त प्रशिक्षण मेलनम् सम्पादितम्। धनगढ़ी स्थाने आयोजिते मेलने प्रधानमन्त्री नेपाली कांग्रेस दलस्य सभापतिश्च शेरबहादुर देव अवदत् संविधानस्य लोकतन्त्रस्य संघीयतायाश्च रक्षायै गठबन्धनम् आवश्यकम् वर्तते। असौ मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानम् निर्वाचनम् केन्द्रीकृत्य नैर्वाचनिकाभियाने क्रियाशीला भवितुम् नेतृ कार्यकर्तृन् निरदिशत। मेलने नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड अवोचत् मार्गशीर्ष मासस्य चतुर्थ दिवसस्य निर्वाचनम् अग्रगमन प्रतिगमनयोर्मध्ये महासंग्रामो वर्तते। अध्यक्ष प्रचण्ड राजनीतेः सुदृढीकरणाय आर्थिक समृद्धिः आवश्यकी भवतीति चर्चयन् अब्रवीत्। निर्वाचनस्य पश्चात् राष्ट्रं विकासं समृद्धिं सुशासनम् आर्थिक समृद्धिं च प्रति अग्रे वर्धिष्यते। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः अवोचत् संविधानस्य लोकतन्त्रस्य देशस्य जनतायाश्च रक्षणस्य पवित्रोद्देश्यम् निधाय गठबन्धनम् निर्मितमस्ति। अध्यक्षो नेपालः ऐतिहासिक परिवर्तनस्य समये कांग्रेस वामपन्थिभिः एकीभूय अग्रे वर्धितमिति भाषमाणः प्रतिगमनस्य संकटस्य इदानीमपि विद्यमानत्वात् सावधानः भवितुम् बलम् प्रादात्। पूर्वीय द्यूरेव सुर्खेत जनपदे आयोजिताम् पञ्चदलीय सभाम् सम्बोधयन् प्रधानमन्त्री देववासत कर्णाली क्षेत्रस्य विकास समृद्ध्योः कृते सर्वकारः क्रियाशीलो वर्तते। असौ संविधानस्य लोकतन्त्रस्य गणतन्त्रस्य च रक्षायै पञ्चदलीय गठबन्धनस्य ऐतिहासिकीम् आवश्यकताम् प्रत्यपादयत्। सभायाम् नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड अब्रवीत् एमाले दलेन सह वित्तस्य सहकार्यस्य क्रमे प्राप्तया शिक्षया वर्तमानं गठबन्धनं निर्मातुं बहुसाहाय्यं प्राप्तं वर्तते। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः अतर्कयत् संविधानस्य संघीयतायाश्च रक्षणाय गठबन्धनम् निर्मितमस्ति। कार्यक्रमे नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः अगदत् लोकतन्त्रस्य रक्षायै सबल शान्तये राष्ट्रस्य अन्धकारं प्रति दुर्नयनात् रक्षणार्थं च गठबन्धनम् निर्मितम् वर्तते। आगामिनो मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य प्रतिनिधि सभायाः प्रदेश सभानां च सदस्यानां निर्वाचनस्य प्रयोजनाय प्रत्यक्ष निर्वाचन प्रणाल्याः पक्षस्य प्रतिशतं चत्वारिंशतः मतपत्राणां मुद्रण कार्यं सम्पन्नमस्ति। अधुनावधि समानुपातिक निर्वाचन प्रणाली प्रत्यक्ष निर्वाचन प्रणाली चेति आहत्य समग्रतः प्रतिशतं सप्ततेः मतपत्राणां मुद्रण कार्यं सम्पन्नमस्ति। समानुपातिक निर्वाचन प्रणाल्याः पक्षस्य मतपत्राणां परिवहन कार्यम् अविच्छिन्न रूपेण विधीयमानं वर्तते। प्रत्यक्ष पक्षस्य अधुनावधि एककोट्याः सप्तषष्टेः लक्षाणां पञ्चशतस्य च मतपत्राणां मुद्रण कार्यं सम्पन्नमिति निर्वाचन आयोगस्य सहायक प्रवक्ता कमल भट्टराई ज्ञापयति। समानुपातिक निर्वाचन प्रणाल्याः पक्षे अष्टाषष्ट्यां जनपदेषु मतपत्राणां परिवहनं सम्पन्नमस्ति। अतपरं नवानां जनपदानां कृते एव मतपत्राणां परिवहनम् अवशिष्टं वर्तते। निर्वाचनायोगस्य आयुक्तः रामप्रसाद भण्डारी कथयति प्रतिनिधिसभायाः प्रदेशसभानां च निर्वाचन आचार संहितायाः विपरीतानि कार्याणि अवरुद्धुम् आयोगः प्रतिबद्धोऽस्ति। निर्वाचनायोगेन ह्यः पोखरायाम् आयोजिते प्रदेशस्तरीय संचार माध्यमाभिमुखीकरण कार्यक्रमे असौ निर्वाचने सहभागिभिः सर्वैः राजनैतिक दलैः विहितायाः प्रतिबद्धतायाः अनुसारेण आचार संहितायाः कठोरेण क्रियान्वयनं कारयिष्यते इति स्पष्टीकृतवान्। निर्वाचन आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेलः समानुपातिक निर्वाचन प्रणाल्याः पक्षस्य मतपत्राणां दुर्गम क्षेत्रस्य नवजनपदान् विहाय अन्येषां जनपदानां कृते परिवहन कार्यं सम्पादितमस्तीति असूचयत्। नेपाली कांग्रेस दलेन आगामिनो मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनस्य प्रयोजनाय दलस्य संकल्पपत्रम् अद्य सार्वजनिक क्रियमाणमस्ति। सायंकालाय संकल्पपत्रस्य सार्वजनिकरणं निर्धारितं सदपि काष्ठमण्डपोपत्यकातः वैस्थितस्य प्रधानमन्त्रिणः दलसभापतेश्च शेरबहादुर देवाविदस्य आगमने विलम्बनस्य कारणेन अद्य पूर्वाह्नस्य सार्धदशवादनस्य कृते कार्यक्रमोऽसौ निर्धारितोऽस्तीति दलकार्यालयेन ज्ञापितमस्ति। प्रधानमन्त्रिणा दलसभापतिना च देवाविदेन दलस्य सानेपा वर्तिनी केन्द्रीय कार्यालये आयोज्यमाने कार्यक्रमे संकल्पपत्रस्य सार्वजनिकरणं विद्यमानम् अस्तीति कांग्रेस दलीय केन्द्रीय कार्यालयस्य मुख्य सचिव कृष्णप्रसाद पौडेल सूचयति। नेकपा एमाले दलेन आगामिनो मार्चे समासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभायाः प्रदेशसभानां च निर्वाचनस्य घोषणापत्रं छठपर्वणः अनन्तरं सार्वजनिकर्तुं पूर्वकार्यं विहितं वर्तते। एमाले दलस्य केन्द्रीय प्रचार प्रकाशन विभागस्य सचिवस्य गगनविष्टस्य अनुसारेण घोषणापत्राय प्राप्ताः परामर्शाः अध्ययनस्य क्रमे सन्ति एवं पर्वोत्सवानां समाप्तेः अनुपदमेव घोषणापत्रं सार्वजनिकर्तुं पूर्वकार्यं विहितमस्ति। एमाले दलस्य नैर्वाचनिक घोषणापत्रस्य निर्माणाय दलाध्यक्षस्य केपी शर्मा ओलिनः संयोजकत्वे प्रारूप निर्माण समितिः संगठिता वर्तते। समितिरियं प्राप्तान् परामर्शान् संयोज्य अन्तिमरूप प्रदान कार्यं कुर्वती अस्तीति विभागोऽयं ज्ञापयति। यमपञ्चक पर्वणः अन्तर्गतम् अद्य लक्ष्मी पूजा वर्तते। अस्मिन् पर्वणि धनधान्य सम्पदाम् अधिष्ठात्री महालक्ष्मीः दीपमालिका प्रज्वालन पुरस्सरं पूज्यते। एतदवसरे गृहस्थाः गृहप्राङ्गण लेपन मार्जन पूर्वकं माल्यादिभिः विभूषिते गृहे महालक्ष्मीम् आवाह्य सायं समयतः आरात्रं भजन कीर्तन लोकगाथा गान जागरणानि विदधति। यैश्च कर्मभिः प्रसन्नः लक्ष्मी धनधान्यादिभिः गृहस्थ साधकान् सुखिनः कारयतीति जनविश्वासो वर्तते। अद्यैव महाकवेः लक्ष्मीप्रसाद देवकोटा विधेयस्य चतुर्दशाधिक शततमी जन्म जयन्ती विविधान् साहित्यिक कार्यक्रमान् आयोज्य समाद्रियते। अस्य महाकवेः मुनामदन शाकुन्तला सुलोचना महाराणा प्रताप प्रवृत्तयो बहुशः काव्यकृतयः प्रकाशिताः सन्ति। नेपाली निबन्ध विधायामपि अस्य विशिष्टम् योगदानम् वर्तते। अद्यैव प्रातः कुकुर पूजन पर्व च आयोज्यते। श्याव सबल नामधेयौ स्वानौ यमदूतत्वेन समादृतौ वर्तेते इत्यतः स्वानः यमदूत परिवाराः सन्तीति मत्वा इमान् सम्पूज्य भक्त मिष्ठान्न फलादिभिः एतेषाम् तृप्तेः परम्परा लोके प्रचलिता शास्त्रेषु समादृता च दृश्यते। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की कथयति गठबन्धनस्य सर्वकार स्थिरतया विकास समृद्धिर्माग्रे अग्रे प्रवर्धते। सुनसरी जनपदस्य झोक्राह नरसिंह ग्रामपालिकायाः चतुर्थवडा क्षेत्रे ह्यः आयोजितं दलप्रवेशन कार्यक्रमं सम्बोधयन् संचार सूचना प्रविधि मन्त्री कार्की लोकतान्त्रिक वाम गठबन्धनं विशिष्टो देशस्य पूरणाय संघटितमस्ति निर्धारितोद्देश्यस्य अपूरणं यावद् गठबन्धनं स्थास्यतीति च समस्पष्टयत। असौ राष्ट्रस्य अधिनायकवादं प्रति उन्मुखीकरणस्य सम्भावनायाः वर्धनात् एतत् कार्यं रोद्धुं नेपाली जनतायाः भावनायाः अनुसारेण निर्मितं संविधानं लोकतन्त्रं संविधानेन व्यवस्थितं परिकल्पितां व्यवस्थां च संरक्षितुं गठबन्धनमेतद् निर्मितमिति अवोचत। कार्यक्रमे विभिन्न दलानि परित्यज्य शतशः नेतारः कार्यकर्तारश्च नेपाली कांग्रेस दलं प्रविष्टाः आसन्। गृहमन्त्री बालकृष्ण खाँड विधिना निर्धारितस्य दायित्वस्य निर्वहणस्य क्रमे प्रहरिणा षोडव्येषु समाह्वयेषु नेपाल सर्वकारस्य गृहमन्त्रालयस्य च पूर्ण सहयोगो भवतीति प्रतिबद्धतां व्यनक्ति। काष्ठमण्डपस्य महाराजगंजवर्तिनी राष्ट्रिय प्रहरी प्रशिक्षण प्रतिष्ठाने ह्य आयोजिते प्रहरी निरीक्षका धार भूत प्रशिक्षण दीक्षान्त समारोहे गृहमन्त्री खाँड प्रशिक्षणस्य क्रमे प्राप्त शिल्पेन सम्भावितान् सर्वान् समाह्वयान् प्रतिकर्तुं शक्यते इति विश्वासं व्यक्तवान्। इति समाचाराः।